इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी अथ वार्ताः भारतीय अंतरिक्ष अनुसंधान संघटनम् गतरात्रौ श्रीहरिकोटातः उपग्रहद्वयम् सफलतया प्रक्षेपितम् यद्धि अंतरिक्षयानानां डॉकिंग इति संयोजनम् अनडॉकिंग इति वियोजनम् करिष्यति येन भारतदेशः विश्वस्य चतुर्थः देशः अभवत् यो हि उपलब्धिम् इमं सम्प्राप्तवान् इसरो इत्यस्य PSLV इति वॉर हॉर्स रॉकेट पोलर इति उपग्रह प्रक्षेपणयानम् उपग्रहद्वयम् SDX-1 SDX-2 इति 670 किलोमीटर परिमितायां वर्तुलाकारकक्षायां स्थापयिष्यति स्पेडेक्स इति अभियानं भारतस्य भविष्यत्कालिकानाम् अंतरिक्ष अन्वेषण प्रयासानां कृते आधारशिलात्वेन भविष्यति इति अपेक्षास्ति भारतीयाः चन्द्रमसि इति लक्ष्यमधिकृत्य भारतीय अंतरिक्षस्थानकं चन्द्रमसः अंतरिक्षयात्रिणः अवरोहणे अपि समर्थाः भविष्यन्ति इत्यपेक्षते केवलं अमेरिका रूस चीनदेशाः एव अंतरिक्ष डॉकिंग इत्यस्यां प्रौद्योगिक्यां निपुणतां प्राप्तवन्तः अभियानस्यास्य मुख्य उद्देश्यं अंतरिक्षयानेषु विद्युत् शक्ति हस्तांतरणस्य प्रदर्शनम् अपि वर्तते भारतेन अत्युत्तम लक्ष्यं सम्प्राप्य वैदेशिक मुद्रा विनिमय कोषः 700 विलियन यूएस डॉलर परिमितः संजातः अनेनैव सह वैश्विक स्तरे भारतस्य स्थानं चतुर्थं संजातम् आहत्य गत दशाब्देः चतुर्दशतः चतुर्विंशतिः काले प्रत्यक्ष वैदेशिक विनिवेशः प्रायः 900 बिलियन डॉलरात्मकस्य संजातोस्ति अस्मत्वार्ताहरेण प्रोक्तं यत् वैश्विक प्रतिस्पर्धीत सूचकांके 14-2000 वर्षे भारतस्य स्थानं यत्र 170 आसीत् तत्रैव 18-2000 वर्षे स्थानमिदं वरिवर्ध्य 41 अभवत् इदं हि आधारभूतसंरचनाम् आपणस्य स्थितिं नवाचारे वृद्धिं च दर्शयति भारतनेपालसैन्य अभ्यासस्य सूर्यकिरण इत्यस्य 18 संस्करणम् अद्य नेपालदेशस्य रूपनदेही नगरस्य सलझण्डी इत्यत्र आरभ्यते बटालियनस्तरीयः संयुक्तसैन्य अभ्यासः अरण्ययुद्धं समाह्वानपूर्णे भूगोले आतंकवादविरोधीत्यादिषु च आपत्प्रबन्धने मानवीयसहायतायां केन्द्रितः अस्ति भारतीयसेनायाः 11 गोर्खा राइफल्स नेपालीसेनायाः श्रीजंग बटालियन इत्येतौ सप्ताहद्वयात्मके प्रशिक्षणे भागं गृह्णन्ति भारतस्य विनिर्माणक्षेत्रे अस्मिन् वर्षे उल्लेखनीय वृद्धि अभवत् येन तस्य वैश्विकशक्तिकेन्द्रे परिवर्तनं रेखांकितं क्रियते नरेन्द्रमोदी प्रशासनेन विगतेषु दशवर्षेषु आर्थिक सामाजिक विदेश नीति परिकल्पनाः कार्यान्विताः एतैः उपक्रमैः भारतस्य वैश्विक शक्तिरूपेण उदये योगदानं कृतमस्ति संयुक्त अरब अमीरातस्य UAE इत्यस्य मध्यस्थतायां रूस यूक्रेन देशयोः शतशः युद्धबन्दीनाम् आदान प्रदानं जातम् रूसदेशस्य रक्षामन्त्रालयेन उक्तं यत् बद्धेषु 150 यावत् सैनिकानाम् आदानप्रदानं कृतम् हॉकी इंडिया लीग इत्याख्यायां क्रीडामालायां राउरकेलायाः बिरसा मुंडा हॉकी क्रीडांगणे गतसायं यूपी रुद्रज इत्यनेन दलेन वेदांत कलिंगा लॉन्सर्स इत्येतं दलं 3-1 इत्यंकान्तरालेन पराजितम् अद्य राउरकेलायां दिल्ली एसजी पाइपर्स दलं हैदराबाद तूफान दलं सम्मुखीकरिष्यति इति वार्ताः